अस्य वीरम् को अवश्यरिन्द्रम् सुकरधमीयमानम् हरिभ्याम् यो राजा वज्रीसुतोपमिच्छन्ततो गोगन्ता पुरुहूतभूति आददक्षम् परमस्य सस्वरुग्रन्वाजमिच्छन् अवृच्छमन्याम् उदरेम आहुरिन्द्रम् नरो बुधाना देव प्रणुभयम् सुते याते कृतानीन्द्रब्रवामजानि नो युजोषः वेदत विद्वान् शृणवच्च विद्वान् महतेजम् मघवा सर्वसेनः स्थिरम् मनश्च कृषे जातयिन्द्रवेषीदेको युधये भूजतश्चित् अस्मानम् चिच्छवसादिद्युतो विहितो गवा मूर्वमुश्रियाणाम् परोयत्वम् परम आदिष्टाः परापति श्रुत्यम् नाम बिभ्रत् अतश्चिदिन्द्रादभयम् तदेवा विश्वा अपो अजयद्दासपत्नीः तुभ्येदेते मरुतः सुसेवा अर्चम् चर्कम् सुन्वन्त्यन्धाः अहिमोहानमपासजानम् प्रभाजाभिर्मालिनम् सक्षदिन्द्राः विषोमृदो जनुषादानमिन्वन्नहङ्गवामघवन् सञ्चकानः अत्रा दासस्य नमूने शिरोजदवत्तयोवन वेगातुमिच्छन् युजम् हि मामकृथा आददिन्द्रशिरो दासस्य नमूचेर्मथायन् अस्मानम् चित्स्वर्या अम्बर्तमानम् प्रचक्रिये वरोदसी मरुद्भ्यः स्त्रियो हि दासायुधानि चक्रे किम्माकरन्न फला अस्य सेनाः अन्तर्हेख्य दुभे अस्य धेने अथो पप्रैद्युधरेतस्युमिन्द्राः समद्रकापोभितो नवन्ते हेह वत्सैर्वियूतायदासन् सन्ता इन्द्रो असृजदश्च सागैर्यदीम् सोमासुषूतामन्दन् यदीम् सोमाबृधूतामन्दन्नरो रवीदृढमः सादरेषु पुरन्दरः प्रविवान्द्रो अस्य पुनर्गवामददादुश्रियाणाम् भद्रमिदम् वृषवा अग्ने अग्रङ्गवाम् चत्वारि ददः सहस्रा ऋणञ्जयस्य प्रजातामघानि प्रत्यग्रभेष्मृतमस्य नृणाम् सुपेद सम्मापसृजन्त्यस्तङ्गवाम् सहस्रै वृषवासो अग्ने ीरा इन्द्र मम मन्दः सुदासोक्तोऽष्टौ परीतज्ञायाः औच्छत्स रात्रि परीतज्ञायाम् निरञ्जये राजनिरुसमानाम् आद्यो न बाजी रघुरज्यमानो बभ्रश्चत्वार्यसरत्सहस्रा चतुःसहस्रम् गव्यस्य पश्वः प्रत्यग्रभेष्मरुसमेष्वग्ने घर्मश्चित्तप्तः प्रभृजेय आसीदयस्मयस्तम् वादामभिप्राः